इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः ब्रिटेनदेशीयेन राज्ञा चार्ल्स तृतीयेन सह वार्तां कृतवान्। उभयोः देशयोः मध्ये ऐतिहासिकान् सम्बन्धान् संस्मरन्तौ उभौ नेतारौ भारत ब्रिटेनयोः मध्ये रणनीतिक सहभागित्वाय स्वीय प्रतिबद्धतां पुष्टिं कृतवन्तौ। एकस्मिन् सामाजिक सन्देशपटले प्रधानमन्त्री अलिखत् यत् असौ ऋतुदशा कार्याचरणं स्थिरतां च समेत्य पारस्परिक हितानां विविधेषु विषयेषु चर्चां कृतवान्। लोकसभाध्यक्षेण ओम बिरला इत्यनेन कठोरादृष्टं यत् केनापि राजनीतिकदलेन सांसदसमूहैश्च संसद्भवनस्य कस्मिन्नपि द्वारे प्रदर्शनं नैव आचरणीयम्। अयं निर्देशो ह्यः संसद परिसरे जातां घटनाम् अभिलक्ष्य प्रख्यापितः, यदा कांग्रेस भाजपेति दलयोः सांसदैः विरोधप्रदर्शनकाले पारस्परिकः प्रहारः कृतः, येन हि द्वौ सांसदौ व्रणितौ जातौ, उभौ सांसदौ चिकित्सालये चिकित्सां च प्राप्तवन्तौ। भाजपेति दलेन प्रख्यापित परिवेदनानन्तरं दिल्ल्यारक्षकैः कांग्रेसदलस्य राहुलगान्धिनः विरुध्य प्राथमिकी पञ्जीकृता। दिल्ल्यारक्षिणा प्रोदीरितं यत् केवलं भारतीय न्यायसंहितायाः 90% धारा अपसारिता, अन्याः च सर्वाः धाराः ताः एव सन्ति याः परिवेदनायां प्रदत्ताः। भाजपेति दलस्य अनुराग सिंह ठाकुरः, बांसुरी स्वराजः, हेमंग जोशी इत्येते ह्यः लोकसभायाः विपक्षनेतुः राहुलगान्धिनः विरुध्य संसद मार्गस्य दिल्ल्यारक्षिस्थानके प्राथमिकीं सूचितवन्तः। केन्द्रीयः गृहमन्त्री अमितशाहः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः आतंकवादं विरुध्य शून्य सहिष्णुता नीत्यानुसारं प्रशासनं शीघ्रमेव आतंकवादमुक्तं जम्मू कश्मीरस्य लक्ष्यं प्राप्स्यति इति। तत्रैव एतदर्थं सर्वाणि संसाधनानि समुपलब्धानि कारयिष्यते। ह्यः नवदिल्ल्यां जम्मू कश्मीरस्य स्थितिः समादाय जातस्य एकस्य उच्चस्तरीय सुरक्षोपवेशनस्य अध्यक्षतां कुर्वन् श्रीशाहः उक्तवान् मोदी प्रशासनं समेषां सुरक्षाबलानां संयुक्तप्रयासैः जम्मू कश्मीरे आतंकवादी पूर्णतया प्रभुत्वस्थापनाय प्रतिबद्धं वर्तते। अवधेयास्पदं वर्तते यत् विधानसभा लोकसभा निर्वाचनेषु कृतसहभागिता एतत् प्रदर्शयति यत् जम्मू कश्मीरस्य जनाः देशस्य लोकतन्त्रे विश्वसन्ति इति। विदेश सचिवः विक्रम मिस्री इत्येषः अद्यारभ्य मॉरिशस देशस्य त्रिदिवसीय यात्रार्थं गच्छति इति। इयं यात्रा प्रधानमन्त्रिणः नवीन चन्द्र राम गुलाम इत्येतस्य नेतृत्वे मॉरिशस देशे नवीन प्रशासनस्य निर्माणानन्तरं भारत मॉरिशस देशयोर्मध्ये प्रथमं उच्चस्तरीयं द्विपक्षीय सहभागित्वं वर्तते। अवधेयास्पदं वर्तते यत् उभयोः देशयोः मध्ये निहिताः सम्बन्धाः प्राचीनकालादेव विद्यन्ते, याः हि इतिहास संस्कृति परम्परासु आधारिताः वर्तन्ते। इयं यात्रा मॉरिशस देशेन सह भारतस्य द्विपक्षीय सम्बन्धान् इतोपि अग्रे समेधितुम् अवसरत्वेन दृश्यते इति। परीक्षा पे चर्चा इत्येतस्य अष्टमं संस्करणं आगामिनि मासे आयोजयिष्यते। प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रारब्धाय विलक्षणाय संवादात्मकाय कार्यक्रमाय पञ्जीयन कार्यम् उद्घाटितं, यद्धि माई गोव इत्यस्मिन् आन्तर्जालिके जनवरी मासस्य 14 दिनांकपर्यन्तं उद्घाटितं भविष्यति। बालानां परीक्षासम्बद्धं मानसिकावसादं दूरीकर्तुम् अयं कार्यक्रमः छात्रेभ्यः अभिभावकेभ्यः शिक्षकेभ्यः च महत्वपूर्णो वर्तते। महिलानां क्रिकेट प्रतिस्पर्धायां ह्यः भारतीय दलेन वेस्टइंडीज दलं 2-1 इत्यंकान्तरालेन पराजित्य श्रृंखला विजिता इति वार्ताः।